भागर्तादिव सम्प्रक्तौ भागर्तप्रतिपत्तये जगदः पितरं वन्दे पार्वती परमेश्वरौ ॐ एनाक्षरसमाह्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः ॐ सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावतीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः श्रीगुरुभ्यो नमः हरिः ॐ नमस्कारः
धन्यवादः भगिनी
नमस्कारः सुधा भगिनी नमस्कारः गीता भगिनी नमस्कारः सुधा भगिनी सर्वेभ्यः नमस्कारः
नमस्कारः सर्वं कुशलं वा
कुशलं भगिनी धन्यवादः
अस्तु अभ्यासपुस्तके अपि पठामः अद्य पुटसङ्ख्या किं कोऽपि वदतु किमर्थं कथं शीघ्रम् उच्चैः शनैः तु अभवत् कथमपि वयं कृतवन्तः इति मन्ये
आं भगिनि सप्तत्रिंशत् भगिनि
हा सप्तत्रिंशत् किमर्थं
किमर्थम् इति
किमर्थं
हा कथम् इत्युक्ते किं
हौ
हौ
हा एकमेकं प्रश्न रचयतु वदतु सुधा भगिनि कथं योजयित्वा
शैलजा भगिनी अद्य लण्डन् नगरे वातावरणं कथम् अस्ति
वदतु भगिनी उत्तरं वदतु
सुधा भगिनी लण्डन् नगरे वातावरणं लण्डनस्य वातावरणं सर्वदा वन् मिनिट् भगिनि कोल्ड् हौ डु ऐ से कोल्ड् भगिनि
शीतलः अस्ति शीतलः अस्ति अपि च किञ्चित् किञ्चित् वृष्टिः भवति एव
सर्वदा शीतलः वर्षः स्तः
सत्यं सत्यं तदेव लण्डन् नगरे तदेव भवत् अस्तु उत्तमम् उत्तमं सुधा भगिनी एकं प्रश्नं रचयतु शैलजा भगिनी रचयतु
आं भगिनि सुधा भगिनी भवतः कुटुम्बस्य सर्वदा कथमस्ति
भवत्याः
कुटुम्बस्य सभ्याः कथम् अस्ति
मम कुटुम्बे सर्वे कुशलम् अस्ति भगिनि
सभ्याः इत्युक्ते किं भगिनि पुनः वदतु प्रश्न
भवत्याः कुटुम्बस्य सभ्याः कथं स्तः कथं सन्ति
सभ्याः पदस्य विषये वदतु भगिनि
सभ्यः ऐ एम नॉट श्योर भगिनि ऐ थॉट इट इज लाइक पुल्लिंग शब्दः सभ्यः वन मिनिट भगिनि ऐ एम चेकिंग ऑन
इत्युक्ते किं
सभ्यः इज मेंबर्स आर मेंबर्स ऑफ फैमिली
न न न मेंबर्स नास्ति भगिनि सदस्य इति वा सदस्य इति वक्तुम् इच्छति वा सभ्यः भिन्न अर्थः एव भिन्न अस्ति भगिनि सदस्य अस्ति वा
सदस्य वा भगिनि ऐ मेंट टु से मेंबर्स ऑफ द फैमिली सो इट कुड बी लाइक
पुनः पृच्छतु एकवारं प्रयत्न करोतु हा पुनः दीक्षिका भगिनी स्वागतम्
आं भगिनि भवत्याः कुटुम्बस्य सदस्याः कथं सन्ति
तदेव सुन्दरम् उत्तमं तदेव सुन्दरं हा पापाजी एकं प्रश्नं रचयतु कथं योजयित्वा किमपि कथं
रचयतु
कथं रामायणं पठसि
त्वं कथं रामायणं पठसि त्वं कथं रामायणं पठसि अहं मन्दं मन्दं पठामि
त्वं मन्दं बुद्धिः
मन्दं बुद्धिः एव उत्तमं तदेव उत्तमं मम कृते उत्तमं दीप्षिका भगिनी वदतु किमपि प्रश्नं रचयतु कथम् इति योजयित्वा
अहं कथं न जानामि
अहं बुद्धिः कथं चलामि
कथं चलामि
रामः कथम् अस्ति
रामः कथम् अस्ति उत्तरं वदतु
राम कैसे है
उत्तरं वदतु रामः
सम्यक् अस्ति
रामः सम्यक्
अस्ति
आरोग्यः अस्ति आरोग्यः इत्युक्ते स्वस्थः अस्ति
चिन्नागी अस्ति
कुशली अस्ति
कुशली
अस्ति सीता कथमस्ति उत्तरं वदतु
सीता कथमस्ति सीता कुशली अस्ति
कुशली तु पुंलिङ्गं पदं कुशलिनी कुशलिनी
कुशलिनी
अस्ति
कुशलिनी
सीता कुशलिनी अस्ति उत्तमं कुशलिनी कुशलिनी अस्ति उत्तमम् अस्तु अद्य किमर्थम् इति एकं शीर्षिकम् अस्ति किमर्थं पठतु पापाजी आरम्भं करोतु किमर्थम् इति पुटसङ्ख्या सप्तत्रिंशत् किमर्थं हा पठतु पापाजी
किमर्थं विद्यालयं गच्छति
सः
किमर्थं विद्यालयं गच्छति तो सह की जरूरत नहीं है पर अच्छा हो तो अच्छा
सह इत्युक्ते
सह
वह वह प्रातिपदिकम किम सर्वनाम पदम उत्तमं प्रातिपदिकं वदतु सह
सह एतद्
वा
तद्
वा
तद्
तत् उत्तमं सः किमर्थं विद्यालयं गच्छति अग्रिमं पठतु
सः पठनार्थं पठनार्थं विद्यालयं गच्छति
पठनार्थं एकं सः पठनार्थं विद्यालयं गच्छति सत्तु उत्तमं वाक्यम् एकं भिन्नरूपेण वदतु समानार्थक किन्तु भिन्नरूपेण वदतु
सः विद्यालये पठनार्थं गच्छति
न विद्यालयं तु गच्छति एव पठनार्थमिति पदं यदि किमपि अन्य रूपेण वक्तुम् इच्छति तत् किम् इत्युक्ते चतुर्थीविभक्तिसमानार्थक चतुर्थीविभक्ति इत्युक्ते किम्
के लिए
इत्युक्ते संस्कृतभाषायां वदतु पठनाय वदतु एकं वाक्यम् सः
विद्यालयं पठनाय
समानार्थक
समानार्थक पठनार्थं वा पठनाय वा उत्तमम् उत्तमम् हा हा सुधा भगिनी अग्रिमं पठतु
आं भगिनि अत्र शब्दद्वयं लिखितम् अस्ति लिखितम् अस्ति तत् उपयुज्य प्रश्नम् उत्तरं च लिखतु
इत्युक्ते
द्वयोः शब्दयोः अस्ति
अस्ति वा द्वयोः शब्दयोः
सह इति प्रयोजनं कृत्वा उत्तरं लिखतु
उत्तमं यथा
यथा योगासनम् आरोग्यार्थं सः किमर्थं योगासनं करोति सः आरोग्यार्थं योगासनं करोति
इत्युक्ते
वो क्यों योगासन करते हैं आरोग्यम के लिए वो योगासनम करते हैं
आरोग्यम के लिए इत्युक्ते आरोग्यम इत्युक्ते
ना रोग नो
निरोग
रहने निरोग निरोग
सह निरोग निरोगः भवत् भवेत् इति इति कारणेन करोति प्रथमं करोतु
ग्रन्थालयं पठनार्थं सः किमर्थं ग्रन्थालयं गच्छति सः पठनार्थं ग्रन्थालयं गच्छति
उत्तमम् उत्तमं तौ
तौ किमर्थं ग्रन्थालयं गच्छतः तौ पठनार्थं ग्रन्थालयं गच्छतः
उत्तमं यूयं
यूयं यूयं किमर्थं ग्रन्थालयं गच्छत गच्छत यूयं
गच्छत
यूयं पठनार्थं ग्रन्थालयं गच्छत
उत्तमम् उत्तमं धन्यवादः भगिनि शैलजा भगिनि अग्रिमं करोतु
आं भगिनि चिकित्सालयं औषधार्थं सः चिकित्सालयं किमर्थं गच्छति सः चिकित्सालयम् औषधार्थं गच्छति
चिकित्सालयम् अपि समीचीनं किमर्थं चिकित्सालयं कीदृशपदं चिकित्सालयं भगिनि वदतु
चिकित्सालयं नपुंसकलिङ्गपदं वा भगिनि ऐ एम् चेकिङ्ग् भगिनि ऐ एम् थिङ्किङ्ग् इट् इस् चिकित्सा नपुंसकलिङ्गपदं
चिकित्सालय चिकित्सालय कीदृशपदं विद्यालय
पुल्लिङ्ग पुल्लिङ्ग
देवालय विद्यालय चिकित्सालय
द्वितीयविभक्ति पुल्लिङ्गशब्दः एकवचनशब्दः अस्ति
किमर्थं द्वितीयविभक्ति किमर्थं कर्मपदम् अत्र अस्ति
चिकित्सालयिको जाते हैं
किन्तु किमर्थं कर्मपदमस्ति तत्र
because people go to chikitsalayam so it is the keli it is ko bagini chikitsalayam is
kintu sanskrit bhashayam vadam katham janimah karma padam asti va na va tatra
akari chihnam ma asti chet dvitiya vibhakti asti चिकित्सालयम् अस्ति चेत् एकवचनशब्दः अस्ति सो किं किं द प्रश्न पूच्छति
हा हा प्रश्न न अवगतम् अस्तु मम प्रश्न इत्युक्ते कथं जानीमः कर्मपदम् आयाति तत्र आयाति वा न वा
बिकास् वै लुकिङ्ग् एट् द सेण्टेन्स् ऐ केन् अण्डर्स्टाण्ड् इट् इस् लैक् कर्मपदं चिकित्सालयं को जाते है पीपल्
तत्तु सत्यं किन्तु एकम् अन्यपदं दृष्ट्वा वदतु
हां भगिनि
अन्यपदम् अस्ति वाक्ये एकम् अन्यपदम् अस्ति तत् पदं तु बहु
क्रियापदम् अस्ति चेत् गच्छति क्रियापदम् अस्ति चेत् क्रियापदं सकर्मकक्रियापदम् अस्ति चेत् कर्मपदं को स्वीकरोति चिकित्सालयं को स्वीकरोति सो चिकित्सालयं द्वितीया विभक्ति
उत्तमम् अधुना तु धातु किम्
गच्छति गम् धातु
गम् धातु कीदृशधातु गणसङ्ख्या किम्
गच्छति इस् गणः इस् द्वादिगणः परस्मैपदं सकर्मक अस्ति
गणसङ्ख्या वदतु पुनः गणसङ्ख्या किम् भगिनि
नमस्कारः
सङ्ख्या वदतु भगिनि सङ्ख्या किं द्वादिगणः द्वादिगणसङ्ख्या किम्
द्वादिगणः प्रथमगणः अस्ति
प्रथमगणः अस्ति उत्तमं विकरणप्रत्यय किं तत्र
अकार अकार विकरणप्रत्यय आ वर्णः विकरणप्रत्ययः अस्ति
विकरणप्रत्यय तु शप् अस्ति शप् अस्ति चेत् अनुबन्धलोपानन्तरम् अकार एव तिष्ठति शकार अपगच्छति पकार अपगच्छति मध्ये तु अकार अस्ति तदेव
अकार तिष्ठति
शप् तु विकरणप्रत्यय तस्य आकृतिः एव तिष्ठति हा उत्तमं भगिनी भ्वादिगणे शप् अस्ति शप् अस्ति चेत् अ तिष्ठति अस्ति चेत् किमपि परिवर्तनम् अभवत् उत्तमम् उत्तमं भगिनी धन्यवादः दीक्षिका भगिनी अग्रिमं प्रयत्नं करोतु
विदेशं प्रवासार्थं सः किमर्थं विदेशं गतवान्
सकर्मकधातु गम् धातु वदतु भगिनी
विदेशं किमर्थं गतवान्
इत्युक्ते विदेशः विदेशं प्राप्तवान् संस्कृतभाषायाम् इति समीचीनम् अहं विदेशं प्राप्तवान् इत्युक्ते अहं विदेशं गतवती इति
गतवान् भूतकाले गए
गतवती इति प्राप्तवान् अपि समीचीनं तदेव अर्थः वदतु
सः प्रवासार्थं विदेशं
गतवान् पदस्य विषये वदतु किमपि जानाति वा
गतवान् भूतकाल
भूतकाल अस्तु तत्तु समीचीनं
भूतकाल पुंलिङ्गः शब्दः
पुंलिङ्गं पदम् उत्तमम् अन्य किमपि जानाति वा
क्रियान्तप्रत्यय
क्रियापदं नास्ति तत्र भगिनि
गतवान् पुंलिङ्गपदं
क्रियापदं नास्ति
गतवती स्त्रीलिङ्ग
क्रियापदं तु नास्ति कीदृशपदं कृदन्तपदं कृदन्तपदं किं सूचयति क्रिया सूचयति किन्तु क्रियापदं नास्ति क्रिया सूचयति इत्युक्ते अत्र तु संज्ञापदं गतवान् संज्ञापदमस्ति किन्तु कृदन्तसंज्ञापदमस्ति कृदन्त इत्युक्ते किं किमपि क्रिया सूचयति कृदन्त कृत् प्रत्यय तत्र आगच्छति तदेव कृदन्त कृदन्त न कृदन्त ऋषि कृदन्त गतवान् सा करोतु एकं प्रयत्नं करोतु दीक्षिका भगिनी
सा विदेशं प्रवासार्थं गतवान्
गतवान् तु पुंलिङ्गं पदम्
अच्छा सा गतवती
गतवती दीर्घ ई
गतवती
गतवती
स्त्रीलिङ्ग तु गतवती
गतवती उत्तमं तदेव गतवती प्रवासार्थम् इत्युक्ते
प्रवासार्थम् इत्युक्ते वहां रहने के लिए प्रवासी नहीं बोलते ना प्रवासी हिंदी में प्रवासी हो गए मतलब वहां के रहने वाले हो गए प्रवासी लोगों को यहाँ से
घूमने
प्रवासी तो घूमने गए
प्रवासार्थम् तदेव एकवारं पश्यतु संस्कृत स्पोकन् मध्ये पीपल् हू इमिग्रेट् भगिनि
इमिग्रेट् हाँ तो रहने चले गए क्योंकि हिंदी में एक शब्द है ना प्रवासी लोगों के लिए भारत सरकार ने बहुत से नियम बनाए हैं यू वुड ऑल नो ना शैलजा ऑल दोस पीपल हू आर स्टेइंग अब्रॉड द इंडियन गवर्नमेंट हैज रिलैक्स्ड सम रूल्स एंड यू आर ऑल कॉल्ड एज एनआरआई को हिंदी में प्रवासी बोलते हैं
प्रवासी वस् वस् धातुतः आयाति वसति वसति इत्युक्ते अधुना अहं बेङ्गलोर् नगरे वसामि दीक्षिका भगिनी बेङ्गलूरुनगरे वसति
अहं वसामि बेङ्गलूरुनगरे वसामि
उत्तमं सामान्यतया तु अहम् अमेरिकादेशे वसामि किन्तु अधुना कुत्र वसामि बेङ्गलूरुनगरे वसामि उत्तमम् प्रवासार्थं विदेशम् उत्तमं विदेशं कीदृशपदम् किञ्चित् वदतु कथं जानीमः गेस् किमर्थं करोति भगिनि विदेशम् एकवारं पश्यतु न विदेशं पृथक् पृथक् कानि पदानि तत्र सन्ति द्वि अस्ति तदनन्तरं
विदेश पुल्लिङ्गशब्दः भगिनि
देश भगिनि जानाति वा देश इति पदं हिन्दीभाषायाम् अपि अस्ति देश 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 कीदृशपदं देश कथं भगिनि भगिनि देश तु पदम् अस्ति भारत माता विषये अन्य भिन्न भिन्नविषये एव पाकिस्तान् अपि एकं देशः अस्ति भारत माता तु नास्ति तत्र विषयः तु भिन्नः अस्ति तत्र अत्र तु पदस्य विषये एव वार्ता अस्तु देश अस्ति चेत् कीदृशपदं कोऽपि साहाय्यं करोतु
पुल्लिङ्गशब्दः अस्ति,
पुंलिङ्गं पदम्,
पुंलिङ्गम् अस्ति चेत् अधुना परिचय वदतु भगिनि। अम् अस्ति चेत् ऊहां मा करोतु, अन्ते अम् अस्ति चेत् ऊहां मा करोतु। किमर्थं? प्रथम तु क्रिया पश्यतु, तदनन्तरमेव पश्यतु ओ देश। अत्र किम् अभवत्? वि योगः देश, देश देशं, राम रामम्, तदेव कर्मपदम्, कर्मपदम्। किमर्थम् इति तु हा उत्तमम्। अस्तु, अधुना अहं किञ्चित् किञ्चित् पृच्छामि। अस्तु, सातु अस्तु, मम पार्श्वे एक लघु वार्ता अस्ति, तत् वार्ता चतुर्थी विभक्ति योजयित्वा, चतुर्थी विभक्ति प्रदर्शयति। अहम् अधुना एव वाट्साप् मध्ये प्रेषयामि, कृपया पठतु एकवारम्। किमर्थं चतुर्थी विभक्ति समानार्थक अस्ति? तत्र चतुर्थी तत्तु शीर्षिकमस्ति, एकवारं पश्यतु। हा, शिवरूपा भगिनी, अपि च अपि च पापाजी, पापाजी विनोदः, अपि च शिवरूपा भगिनी ललिता। अस्तु, एकवारं पठतु।
अहं भगिनी,
पापाजी आरम्भं करोतु। विनोदः,
विनोदः ललिते, मम लेखनी क्वः,
क्व
मम लेखनी क्व, कर्तरी अपि नास्ति अत्र, कर्मै दत्तवती भवति।
ललिता, ह्यः भवान् एव लेखनीं पुत्राय दत्तवान्।
समीकरोतु भगिनि।
पुत्राय, पुत्राय दत्तवान्, कर्तरीं पुत्र्यै दत्तवान्।
एवं खलु, विस्मृतवान् आसम्।
ललिता, भवान् आगच्छतु अत्र, भवते उपहारं ददामि।
उपाहारम्,
उपाहारं ददामि।
मह्यम् इदानीं मास्तु, किरणाय प्रथमं ददातु।
तस्मै अहं दत्तवती एव, कवितायै अपि दत्तवती, भवान् शीघ्रम् आगच्छतु।
नन्दिन्यै दत्तवती किम्?
तस्यै अनन्तरं ददामि, भवान् इदानीम् आगच्छतु।
पत्रिकायै एकं लेखनं लिखन् अस्मि, लेखनं समाप्य आगच्छामि।
उत्तमम्, उत्तमम्, एकवारं पुनः पठामः। अस्तु, अधुना दीप्षिका भगिनी एवापि शैलजा भगिनी, हा
शैलजा भगिनी विनोदः, दीप्षिका भगिनी ललिता. पठतु एकवारं पुनः.
आं भगिनि. ललिते मम लेखनी क्व? कर्तरी अपि नास्ति अत्र. कस्मै दत्तवती भवती?
ह्यः भवान् एव लेखनीं पुत्राय दत्तवान्. कर्तरीं पुत्र्यै दत्तवान्. पुत्र्यै दत्तवान्.
विनोदः एवं खलु विस्मृतवान् आसम्.
ललिता भवान् आगच्छतु अत्र, भवते उपहारं ददामि.
उपहारं
ददामि.
विनोदः मह्यम् इदानीं मास्तु, किरणाय प्रथमं ददातु.
ललिता तस्मै अहं दत्तवती एव. कवितायै अपि दत्तवती. भवान् शीघ्रम् आगच्छतु.
विनोदः नन्दिन्यै दत्तवती किम्?
ललिता तस्यै अनन्तरं ददामि. भवान् इदानीम् आगच्छतु.
विनोदः पुत्रिकायै एकं
समीकरोतु.
विनोदः पुत्रिकायै पत्रिकायै एकं लेखनं लिखन् अस्मि. लेखनं समाप्य आगच्छामि.
उत्तमम्. अस्तु सुधा भगिनी, प्रथमवाक्यं विनोदः किं वदति एकवारं विवृणोतु.
ललिते इति रचय सम्बोधना अस्ति. ललिते
सम्बोधन प्रथमा. उत्तमं.
मम लेखनी ललिता आकारान्त स्त्रीलिङ्ग पदमस्ति. इति पदस्य प्रथम विभक्ति सम्बोधन ललिते अस्ति. मम लेखनी क्व? मम लेखनी कुत्र अस्ति?
क्व कीदृशपदं?
क्व इति अव्ययपदम् अस्ति.
अव्ययपदम्. उत्तमम्. अव्ययपदम् इत्युक्ते कुत्र?
कुत्र
कुत्र? मम कीदृशपदं?
मम इति षष्ठी विभक्ति अस्मत् प्रातिपदिकम् अस्ति.
उत्तमम्. एकवचनं. मम लेखनी क्व?
मम लेखनी क्व? कर्तरी अपि नास्ति अत्र. कर्तरी अपि नास्ति.
लेखनी किं, कर्तरी किं, वदतु.
लेखनी पेन्सिल् अस्ति. कर्तरी सिज़र्स् अस्ति.
लेखनी कीदृशपदं?
लेखनी पेन् अस्ति. अङ्कनी पेन्सिल् अस्ति. सोरि,
कीदृशपदं?
लेखनी इति दीर्घ आकारान्त स्त्रीलिङ्गपदम् अस्ति.
स्त्रीलिङ्गपदं लेखनी. नदीवत्.
कर्तरी? कर्तरी अपि समीचीन.
समानेव.
समानेव.
कर्तरी अपि नास्ति अत्र. अग्रिमम्.
कस्मै दत्तवती भवती? कस्मै इति नपुंसकलिङ्ग चतुर्थी विभक्ति.
नपुंसकलिङ्ग वा कस्मै चतुर्थी तु अस्ति. कः कौके कं कौकान् केन काभ्यां कैः कस्मै कस्मै तु पुंलिङ्ग अस्ति. अपि
पुंलिङ्गम् अस्ति बट् कर्तरी और लेखनी इति स्त्रीलिङ्गमस्ति. कस्मै पुंलिङ्गम् अपि अस्ति.
कस्मै अपि कर्तरी किमपि सम्बन्धः तत्र
नास्ति.
कस्मै दत्तवती इत्युक्ते का अस्ति चेत् स्त्रीलिङ्गपदम् अस्ति चेत् का अस्ति चेत् किम् अभवत् तत्र
कस्यै
कस्यै कस्यै अस्ति चेत् स्त्रीलिङ्ग कस्यै इत्युक्ते किम्
केलिये
केलिये स्त्रीलिङ्गरूपं केलिये उत्तमं कस्यै. किन्तु कस्मै कीदृशपदम्
कस्मै इति पुंलिङ्गपदमस्ति.
पुंलिङ्गं वा नपुंसकलिङ्गं वा द्वे अपि समीचीनम्
इति प्रश्नः.
न समानेव भगिनि. कस्मै नपुंसकलिङ्गं भवतु अपि च पुंलिङ्गं भवतु. कस्मै दत्तवती किमर्थं कस्मै इति दत्तम्
किसके लिए देना है.
दत्तवती
किसको दिया है.
किसको दिया है उत्तमं दिया है. यथा गतवती पठितवती लिखितवती इति भूतकालार्थकपदम्. खादितवती स्मारितवती स्थापितवती. कस्मै दत्तवती किमर्थं चतुर्थी अत्र आयाति किमर्थं द्वितीया नास्ति. कं दत्तवती किमर्थं न दत्तं. कं दत्तवती किमर्थं कस्मै दत्तम्.
इट् इस् फार् द पर्पस् भगिनि.
तत्तु सत्यं किन्तु
भगिनि किसके लिए दिया हुआ है.
उत्तमं तदेव शिवरूपा भगिनी एव वदतु अपि वदतु वदति. किन्तु मम प्रश्न तु किमर्थं द्वितीयविभक्ति नास्ति तत्र
भगिनी. द्वितीयविभक्ति कर्मपदम् अस्ति न भगिनि.
कं भगिनी पश्यतु एकवारं शब्दमञ्जर्यां पुटसङ्ख्या अष्टषष्टिः नवषष्टिः किमपि. कः कौके कं कौकान् कम् इत्युक्ते किम्.
द्वितीयविभक्ति पुंलिङ्गशब्दमस्ति भगिनि. किं किं शब्दः
कम् कम् इति पदस्य अर्थः कः.
कम् इत्युक्ते वाट्
न भगिनि. कम्पजि वदतु कम् इत्युक्ते कः कौके कं कौका. कम् इत्युक्ते किस्को दत्तवती किस्को दिया. सामान्यतया हिन्दीभाषायां तेलुगु तु अहं न जानामि किन्तु हिन्दीभाषायां वयं कथं वदामः
किस्को किस्को दिया है. इधर के लिए दिया है.
किमर्थं चेत् दा धातु अस्ति अत्र दत्तवती कर्तृपदं सोरि कृदन्तपदं किं दत्तवती. कृदन्त अपि तु नास्ति अत्र तु लिङ्ग अस्ति. दत्तवती इत्युक्ते लट् ददाति न क्व तव तु प्रत्यय अपि आयाति. दत्तवती दा धातुतः आयाति दत्तवती. दा धातु एकं सूत्रमस्ति तत् सूत्रं किं वदति? दा धातु सः सर्वदा चतुर्थी एव इति. चतुर्थी सर्वदा, सर्वदा चतुर्थी एव दा धातु सः. तदेव कस्मै दत्तवती, कस्मै ददाति, कस्मै ददामि, कस्मै ददतु, सर्वदा दा धातु सः कस्मै आयाति. अवगतम्? कस्मै दत्तवती भवती, भवति इति पदस्य विषये वदतु सुधा भगिनी.
भवति इति भूधातुतः आयाति.
पुनः पश्यतु भगिनी,
भवति इति भवत् शब्दः अस्ति, भवत्
प्रातिपदिकम्. अर्थः कः तत्र?
भवती उत्तमपुरुष एकवचनशब्दः अस्ति.
कथं भगिनि? पुनः शिवरूप भगिनि.
स्त्रीलिङ्ग स्त्रीलिङ्ग ईकारान्त भवति शब्दः प्रथमविभक्ति एकवचनपदम्.
हा, प्रातिपदिकं
भवति,
भवत्
भवति एव समानं
भवान् भवति
इत्युक्ते किं भगिनि? शिवरूप भगिनि.
स्त्रीलिङ्ग में आप ऐसा.
कथम् अस्ति भवति? तदेव तत्पदमेव भवति इति. दीर्घ ई अस्ति चेत् किमपि क्रियापदं नास्ति तत्र. दीर्घ अन्ते किम् अभवत् तत्र? दीर्घ ई अस्ति, दीर्घ ई अस्ति चेत् कथं लट् पदं अस्ति? लट्लकाररूपं तु सर्वदा ह्रस्व इ एव अस्ति न? लिखति, गच्छति, पठति, शृणोति इति. अवगतम्
भगिनि?
अवगतम् भगिनि.
कस्मै दत्तवती भवती? उत्तमं. शिवरूप भगिनी अग्रिमं वाक्यं पठतु, विवृणोतु.
आं भगिनि. नदिन्ये
ह्यः.
ओके ओके भगिनि. हियर् सेकेण्ड् मन् ललिता रैट् भगिनि. ह्यः भवान् एव लेखनीं पुत्राय दत्तवान्. पुत्राय दत्तवान्. कर्तरीं पुत्र्यै दत्तवान्.
इत्युक्ते? इत्युक्ते
सो कल् आपने पेन् को पुत्रों को दिया है और कर्तरी को पुत्रियों को दिया है सर.
पुत्रियों को वचनं किं तत्र?
पुत्री, पुत्री को, पुत्री
एकवचनं.
एकवचनं पुत्री को कर्तरी दिया है, पुत्र को पेन दिया है कल आपने.
तदेव. ह्यः भवान् एव लेखनीं पुत्राय दत्तवान्. अधुना पुनः पश्यन्तु सर्वे. ह्यः, ह्यः, ह्यः पुत्राय पुनः चतुर्थी एकवचन अकारान्त पुंलिङ्गपदम्. पुत्राय दत्तवान्, पुत्र्यै स्त्रीलिङ्ग दत्तवान् एव. दत्तवान् इत्युक्ते किं?
कः
दत्तवान्?
कः दत्तवान्? पुत्र्यै दत्तवान्.
न न न न, कः दत्तवान् इत्युक्ते किं?
कर्तरी
कः दत्तवान्? न न न न, कः इत्युक्ते किं भगिनि?
कः इत्युक्ते किं शब्दः पुंलिङ्ग मकारान्त
इत्युक्ते किं? किन्तु
प्रश्न कः इत्युक्ते कौन् ऐसा.
कौन कौन इत्युक्ते कः दत्तवान्
विनोदः दत्तवान्
कः कर्तृपदमस्ति कर्तृपदमस्ति विनोदः दत्तवान् भवान् एव वदतु शिवरूपा भगिनी किमर्थम् एव दत्तं भवान् एव इत्युक्ते
यु ओन्लि गिवेन् ओन्लि
आप ही ने दिया
आप ही ने दिया
आप ही ने दिया किसी और ने नहीं दिया आप ही ने दिया ह्यः भवान् एव लेखनीं पुत्राय दत्तवान् कर्तरीं पुत्र्यै दत्तवान् अस्तु अस्तु धन्यवाद भगिनी सरेज
धन्यवाद
आम भगिनी विनोदः एवं खलु विस्मृतवान् आसम् एवम् इन् स्पोकन् संस्कृत सेस् लैक् रियलि आर् यु श्योर् आर् इस् समथिङ्ग् लैक् देट् भगिनि यस् खलु खलु इस् इस् इट् नाट्
एवं खलु इत्युक्ते किं भगिनि
खलु इस् इस् इट् नाट् आर् समथिङ्ग् लैक् देट् भगिनि ओके
एवं खलु
एवं खलु एवं खलु
एवम् इत्युक्ते किं पुनः वदतु
एवं आर् यु श्योर् रियलि इस् समथिङ्ग् लैक् देट्
एवमेव रियलि
एवम् इस् रियलि
लैक् देट् सचि मे जो तुमने बोला सचि मे खलु इत्यु खलु इत्युक्ते अव्ययपदं खलु इत्युक्ते है क्या ऐसा क्या ऐसा क्या लैक् सचि मे लैक् दिस् सच् मे एवं खलु
एवं खलु विस्मृतवान् आसम् विस्मृतवान् इस् forgetting some is it something like he is saying like they are forgetting
forgetting va tat kala kim tatra
vismrutavan one minute pagne I'm checking
kala kidrasha kala asti tatra
kala is kala or which one are you asking pagni sorry
वर्तमानकाले भूतकाले
विस्मृतवान् इस् समथिङ्ग् लैक् अभूतकाल
भूतकाल भूतकाल अस्ति
भूतकाल पुल्लिङ्गशब्दः एकवचनशब्दः अस्ति
इत्युक्ते फर्गेटिङ्ग् तु नास्ति अत्र तथा अनुवादं किं
विस्मृतवान्
विस्मृतवान् समीकरोतु अनुवाद अनुवाद
विस्मृतवान्
इत्युक्ते इत्युक्ते अर्थः कः
I have to check bagni
विस्मृतवान् अर्थः कः
I forgot
एव forgot विस्मृतवान् इत्युक्ते भूतकालार्थक पुल्लिङ्गपदम् एकवचनम्
एकवचनशब्दम् भगिनि सो पठति जस्ट् लैक् पठति वि से लैक् हि सः पठति सो सः विस्मृतवान् इस् दट् रैट् भगिनि वि यूस् फोर् सः
पठति तु भगिनि पठति तु लट् लट् रूपम् अस्ति अत्र तु
लट् लट् भवति बट् पठति इस् प्रथमपुरुष एकवचनशब्दः अस्ति एन भगिनि सो इस् इट् लैक् पठति शब्दवात् हेन पठतिवान् इस् प्रथमपुरुष एकवचनशब्दः हेन
न भगिनि प्रयोग तु भिन्न अस्ति पठति तु लट् रूपम् अस्ति
आं भगिनि.
पठितवान् तु कृदन्तरूपम् अस्ति, भिन्नरूप तु भेदः अस्ति, तत्र किमपि सामान्यं नास्ति. विस्मृतवान् पठति तु स्त्रीलिङ्ग् अस्ति वा पुंलिङ्ग् अस्ति वा नपुंसकलिङ्ग् अस्ति वा, पठति तु पठति एव,
लिङ्गभेदं नास्ति,
लिङ्गभेदः नास्ति. पठितवान् तु पुंलिङ्गपदं, कृदन्तपदं, तव तु प्रत्यय योजयित्वा भूतकालार्थक अस्ति. बहु किमपि भेदः अस्ति भगिनि, किमपि सामान्यं नास्ति तत्र.
सो डु वी से लैक् सः पठितवान् भगिनि
इत्युक्ते किम्? सः पठितवान्
ही फर्गेट्स्.
न न, पठितवान् भगिनि, सः
पठितवान्, सोरि भगिनि, पठितवान्, ऐ मेन्ट् टु से लैक् विस्मृतवान्.
न, सः पठितवान् इत्युक्ते किम्?
ही रेड्.
सः विस्मृतवान् इत्युक्ते किम्?
ही फर्गोट्.
अधुना विस्मृतवान् किमपि पुरुषः अस्ति चेत् तदेव पदं भवति. लट् रूपं किमपि लकार अस्ति चेत् पुरुषभेदः अस्ति, किन्तु लिङ्गभेदः नास्ति. अत्र तु तव तु प्रत्यय योजयित्वा पदस्य आयाति, तत् पदस्य लिङ्गभेदः अस्ति, पुरुषभेदः नास्ति. अवगतम्? लकाररूपाणि अस्ति चेत् लिङ्गभेदः नास्ति, पुरुषभेदः अस्ति. इत्युक्ते किं? लिखति, लिखसि, लिखामि इत्युक्ते किं? पुरुषभेदः अस्ति. किन्तु किं लिङ्गभेदः नास्ति. सः पठति, पठति, सः पठसि, अहं पठामि, त्वं पठसि, अहं पठामि, किमपि लिङ्गभेदः नास्ति.
आं भगिनि, सो कृदन्तक्रियापदम् आल्वेस् दे डोण्ट् हाव् द पुरुषभेदः.
न न न न न न न, सर्वदा तु नास्ति. तव तु प्रत्यय योजयित्वा एव.
तव तु, आं भगिनि,
तव तु प्रत्यय योजयित्वा यत् पदं निष्पन्नं भवति तत्पदस्य लिङ्गभेदः अस्ति, किन्तु पुरुषभेदः नास्ति. अवगतम्?
पुरुषः
इत्युक्ते अहं पठितवान्, रामः पठितवान्, त्वं पठितवान्, समीचीनं सर्वाणि.
In our practice session, Bhagini. Thanks for clearing this doubt.
No. Avashyam Bhiva, Bhagini. Atra, tavatu pratyaya vishaye eva aham vadami. Anya prista pratyaya asti chetu anya niyama asti.
Oh my God, so many things to remember.
तत्तु सत्यं भगिनि. प्रत्ययाः तु बहूनि प्रत्ययाः, बहवः प्रत्ययाः सन्ति, बहवः प्रत्ययाः सन्ति, किन्तु तव तु रूपं तु प्रमुख अस्ति, प्रसिद्धरूप. प्रसिद्ध इत्युक्ते फ्रीक्वेण्ट्लि यूस्ड्. विस्मृतवान् आसम् इत्युक्ते किम्?
Vismritavan asam is, you always forgot?
No, asam ki drisha padam bhagini. Asam,
asam is the bhutakal asti shabdvat asam.
Purushaka?
Asam.
Ekavaram pashyatu, ashtadhyayi madhya pashyatu. Asam, sarvani rupani ekavaram vadatu.
आं भगिनि, वन् मिनिट्.
अन्य कोऽपि जानाति वा अस्धातुतः सर्वाणि रूपाणि मनसि स्थापयति अस्ति चेत् वदतु.
भगिनि, आसम् प्रथम उत्तमपुरुषः अस्ति भगिनि.
सर्वाणि रूपाणि वदतु भगिनि.
आसम्, आस्वा, आस्मा.
आसम्
लङ्लकारः उत्तमपुरुषशब्दः पठतु।
लङ् इत्युक्ते किम्?
लङ् इस् भूतकाल
भूतकाल अधुना
so, उत्तमपुरुष भूतकाल शब्दवत्
अधुना सर्वे एकवारं पश्यतु विस्मृतवान् आसम् एकं सम्पूर्णवाक्यम् अस्ति अहं विस्मृतवान् आसम् अस्ति वा न वा सम्पूर्णवाक्यम् अस्ति वा न वा अस्ति अत्र वाक्ये क्रियापदं किम्
आसम् इस् क्रियापदम्
आसम् यदि विस्मृतवान् अपि क्रियापदम् अस्ति चेत् कथं वयं तस्य अर्थ अवगतम् तदेव अहं वदामि विस्मृतवान् तु संज्ञापदम् एकमेव वाक्ये द्वे क्रियापदं द्वयं तु न लट् रूपं तु न भवति न संज्ञापदम् अहं विस्मृतवान् आसम् इति एकं सम्पूर्णवाक्यमस्ति वाक्ये एकं क्रियापदमस्ति तत् किम् आसम् अपि च एकं कर्तृपदमस्ति तत् किम् अहम् कर्तृपदं किम् अहम्
अहम्
विस्मृतवान्
Here it is implied, Bhagni. Vinodah is saying, is evam kalu, is it really vismrutvan? Aham vismrutvan asam.
Uttamam.
I forgot.
Aham vismrutvan asam lang lakar. Ityukte bhutakala arthak. As dhatu. Asti. Asti vartaman kala. Asam ityukte uttamapurusha bhutakala arthak. Lang rupam asti. Ityukte. हिन्दी वी डोण्ट् टाक् लैक् दिस् भूल् चुका भूल् गया भूल् गया बट् गया इत्युक्ते अर्थ तु अन्य अत्र तु भूल् गया इत्युक्ते
भूल् गये पास्ट् टेन्स् भूल् गयि
भूल् हो गया समथिङ्ग् लैक् दट् भूल् हुआ समथिङ्ग्
लैक् फर्गॉट् लैक् वी इन् इङ्ग्लिश् वी से फर्गॉट् गॉट् गेट्
मैं भूला
भगिनी सिंस विस्मृतवान् वी यूज देयर इज नो पुरुषभेद नहीं ना अस्ति चेत आसम इज यूज्ड भगिनी हियर
आसम व्हाई आसम टेल्स यू वेरी क्लियरली उत्तम पुरुष बिकॉज विस्मृतवान् इफ यू जस्ट लेफ्ट इट देन इट वुड बी लाइक हु
अंडरस्टैंड भगिनी
क्वेश्चन अराइजेस हु अत्र तु स्पष्टमेव पुरुषभेदः नास्ति तत्र कथं जानीमः
आसमस्ति चेत् वाक्यं इस् क्लियर् लैक् अहं विस्मृतवान् आसम्
आसम् अस्ति चेत् वयं जानीमः ओ कर्तृ तु अहमेव उत्तमं सुन्दरं शैलजा भगिनी अस्तु पापाजी अग्रिमं पठतु भवान्
आगच्छतु अत्र भवते उपहारं ददामि
इत्युक्ते भवान् आगच्छतु अत्र इत्युक्ते आगच्छतु कीदृशपदम्
कण्टिन्यूस्
आज्ञा लोट् लोट् लकार आगच्छतु आज्ञा आये आज्ञा आगच्छतु अत्र तु अव्ययपदं भवते उपाहारं ददामि इत्युक्ते किम् भवते इत्युक्ते किं विभक्तिरूपं किं तत्र चतुर्थी प्रातिपदिकं किम् भवत् तकारान्तपदम् इत्युक्ते भवते इत्युक्ते चतुर्थी अस्ति चेत्
भवते
अर्थ तदेव आपके लिए उपाहारं ददामि
आपके लिए मैं उपहार देता हूँ.
उपहार इत्युक्ते किम्? उपाहार इत्युक्ते किम्?
उपहार
उपाहार
उपहार
इत्युक्ते किम्?
उपहार
प्रेजेंट किम्? उपाहार इत्युक्ते किं? कोऽपि वदतु.
ब्रेक्फास्ट् भगिनि.
ब्रेक्फास्ट् भोजन. उपाहार न न उपहार तु न न उपाहार विश्वे सर्वश्रेष्ठ उपहार किम्? उपाहार एव. अन्यथा सर्वाणि वस्तूनि व्यर्थ.
हाँ
ददामि उपाहारं ददामि.
मैं आपको नाश्ता देती हूँ.
तदेव ददामि भवते आपके लिए नाश्ता देती हूँ. भवते उपाहारं ददामि. उत्तमं धन्यवादः. दीप्षिका भगिनी अग्रिमं.
मह्यं
हकार मह्यं
मह्यम् इदानीं मास्तु किरणाय प्रथमं ददातु. मास्तु मतलब उनको नहीं चाहिए.
मास्तु
मास्तु मतलब नहीं है ना.
मा अस्तु अस्तु कीदृश कीदृशपदम् अस्तु
मतलब है ना.
लकार किं? लोट्
आज्ञा.
मा अस्तु इत्युक्ते न न अस्तु इत्युक्ते तत् न भवेत्. तत् न भवेत् वो न हो. क्या न हो?
अभी नहीं.
किं? मह्यम् इत्युक्ते इत्युक्ते मह्यं सर्वाणि रूपाणि एकवारं वदतु दीप्षिका भगिनी. मह्यं पदस्य प्रातिपदिकं किम्? सर्वाणि रूपाणि वदतु. एकवचनरूपाणि सर्वाणि वदतु. सर्वाणि रूपाणि एकवचनरूपाणि वदतु.
अहं माम् मा
माम् मा इत्युक्ते रूपद्वयं. तत्र
द्वितीयविभक्ति तृतीय मया
मया
मया चतुर्थी मह्यं
मह्यं
मह्यं पञ्चमी मत्
मत्
षष्ठी मम
मम
मम मम सप्तमी मयि मयि
मयि
मयि.
उत्तमं तदेव. मह्यम् इत्युक्ते किमर्थम् अत्र मह्यं दत्तं? किमर्थं मां न दत्तं भगिनी दीप्षिका भगिनी? किमर्थम् अत्र वाक्ये मह्यम् इदानीं मास्तु, किमर्थं माम् इदानीं मास्तु न न लिखित लिखित दत्तं तत्र?
दे रही है नाश्ता इसलिए चतुर्थी विभक्ति है क्या?
अन्य कोऽपि वदतु किमर्थं मह्यं दत्तं तत्र?
मह्यं मीन्स् मेरे लिए.
कोऽपि जानाति वा किमर्थं मह्यम् इति दत्तं? श्रूयते वा कोऽपि?
आं भगिनि. मह्यम् इति मेरे लिए इदानीं मास्तु इति मां मुझको मुझे
किमर्थं मां न दत्तं तत्र? किमर्थं मह्यम् इति समीचीनं, माम् असमीचीनं? किमर्थं
अस्तु इति मा अस्तु, अस्तु इति अकर्मकक्रियापदमस्ति.
न न न सन्दर्भः, सन्दर्भः कः? दा धातुतः आयाति. मह्यम् इदानीं मास्तु इत्युक्ते मा ददातु. मह्यम् इदानीं मा ददातु इति.
माम् इति सकर्मकक्रियापदतः आयाति न
भगिनी? किन्तु दा धातु सर्वदा किं करोति?
चतुर्थीविभक्ति
एव स्वीकरोति. इत्युक्ते अत्र तु सन्दर्भः कः? भवते उपहारं ददामि. क्रियापदं तु ददामि. मनसि विनोदस्य मनसि किम् अभवत्? ददामि इति पदं तु तिष्ठति. मह्यम् इदानीं मा ददातु इति ददातु अस्ति तत्र. मनसि ददातु अस्ति, किन्तु किं वदति? मास्तु एव.
इम्प्लैड् अर्थः,
इम्प्लैड् अर्थः. उत्तमम्. इम्प्लैड् दा अस्ति तत्र. ददातु, मा ददातु. दा अस्ति चेत् चतुर्थी एव समीचीनम्. मह्यम् इदानीं मास्तु. अग्रिमं दीक्षिका.
किरणाय प्रथमं ददातु.
इत्युक्ते
प्रथमं मतलब पहले. किरणाय इत्युक्ते
कीदृशपदम्? अन्ते किम् अभवत् तत्र?
किरणाय चतुर्थी विभक्ति.
कस्य पदस्य?
य न रामाय.
य तु न आय अस्ति.
अच्छा,
केवल य तु न आय. रामाय इत्युक्ते किं? राम, राम कीदृशपदम्? अकारान्त पुंलिङ्गं पदम्.
अकारान्त पुंलिङ्गपदम्.
अत्र किम्? अत्र प्रातिपदिकं किम्? किरणाय. प्रातिपदिकं किम्? रामाय प्रातिपदिकं किम्? अकारान्त राम. अत्र
अकारान्त किरण.
धन्यवादः. तदेव किरण. किरण प्रातिपदिकम् अस्ति. किरणाय इत्युक्ते अर्थः कः? प्रथमं ददातु.
किरण के लिए पहले देना है.
ददातु कीदृशपदं भगिनी?
देना
कीदृशपदं वदतु. किमपि जानाति वा?
ददातु
आज्ञा देना है ना. आज्ञा इत्युक्ते किं? दीजिए. दो किमपि प्रार्थना आज्ञा. किरणाय प्रथमं ददातु. उत्तमं. धन्यवादः.
ददातु
प्रथमं ददातु. अधुना
किरण के लिए दो पहले.
तदेव
मतलब वो कह रहा नाश्ता पहले किरण को दो.
मह्यं मास्तु इदानीं मास्तु.
पहले किरण को नाश्ता.
विनोदस्य मनसि कुत्र अस्ति? कोऽपि जानाति वा? विनोदस्य मन विनोदस्य मनः कुत्र अस्ति? मनसि किम् अभवत् तत्र? विनोदस्य मनसि किम् अभवत्? किं तिष्ठति? कीदृशविनोदः? सर्वदा किं करोति? आसक्तिः, आसक्तिः किं तत्र? कस्य आसक्तिः? कोऽपि जानाति वा?
प्रश्नः कः भगिनि? अहं न जानामि.
विनोदस्य मनसि किं तिष्ठति? सर्वदा सर्वदा किं करोति सः?
मन में क्या आ रहा
है? सर्वदा किं करोति?
पुत्र पुत्री पुत्र पुत्री को प्रथमतया ददातु इति.
हा न तत्तु कत् कत् तत्तु सत्यमेव, किन्तु के तस्य आसक्तिः कुत्र अस्ति? वाट् डस् हि लैक्? वाट् डस् हि डु? पापजि सादृश्य पापवि असि अस्ति समान विनोद वा पाप वा समान सर्वदा उत्तमं. किरणाय प्रथमं ददातु उत्तमम् उत्तमं. हा सुधा भगिनी अग्रिमं वदतु.
तस्मै अहं दत्तवती एव, कवितायै अपि दत्तवती, भवान् शीघ्रम् आगच्छतु. किरण को हम दिए हुए हैं.
किरणाय
अहं दत्तवती.
किरणाय अहं दत्तवती,
कवितायै अपि दत्तवती.
अपि दत्तवती किमर्थं? कवितायै किमर्थं किरणाय?
किरण इति पुंलिङ्गशब्दः, चतुर्थी किरणाय इति. कविता इति आकारान्त स्त्रीलिङ्ग पदमस्ति इति कारणात् कवितायै.
सुन्दरम्. अग्रिमं
भवान् शीघ्रम् आगच्छतु. भवान् एव अपि न भोजनं कृतवान् इति कारणात् भवान् शीघ्रम् आगच्छतु
ललिता
इति वदति.
तदेव सुन्दरम्. शिवरूपा भगिनी.
विनोदः नन्दिन्यै दत्तवती किम्? सो नन्दिनी कोऽपि दिया है क्या? सो हियर् नन्दिनी इस् ए स्त्रीलिङ्ग, सो कस्यै नन्दिन्यै? सो किं प्रश्नवाचकशब्दमस्ति? दत्तवती भूतकाल में दिया है क्या?
स्त्रीलिङ्ग
पदं
तवतु प्रत्यय उत्तमं. तदेव
ललिता
दत्तवती किं?
ललिता तस्यै अनन्तरं ददामि. भवान् इदानीम् आगच्छतु. उसको बाद में देती हूं, आप पहले इधर आ जाओ.
तस्यै कीदृशपदम्?
तस्यै स्त्रीलिङ्ग चतुर्थी विभक्ति किं शब्दवत्?
सर्वाणि एकवचनरूपाणि वदतु.
का, काम, कया, कस्यै, कस्याः, कस्याः, कस्यायां. कस्यां, कस्यां,
कस्यां. तदेव कस्याम् उत्तमं भगिनि, धन्यवादः. शैलजा भगिनि.
आं भगिनि.
अग्रिमम् अनन्तरम् इत्युक्ते शिवरूपा भगिनि?
अनन्तरम् आफ्टर्वर्ड्स्.
अनन्तरं
ददामि. उसको मे बाद में देती हूं.
कीदृशपदम् अनन्तरं? किञ्चित् वदतु.
अनन्तरम् एकनिमिषं भगिनि.
अनन्तरं नपुंसकलिङ्गम् अस्ति वा?
वदतु वदतु एकवारं पश्यतु.
अनन्तरम्
अनन्तरं कीदृशपदम्?
अव्ययपदमस्ति.
अव्ययपदमेव.
ओके भगिनि.
अव्ययपदमेव अनन्तरम्.
आं भगिनि अनन्तरं दे आफ्टर् इट्स् इन्डिक्लैनबल्.
उसके बाद अनन्तरम् उत्तमं. शैलजा भगिनि.
आं भगिनि. पुत्रिकायै एकं लेखनं लिखन् अस्मि. पुत्रिकायै पुत्रिका के लिए
पत्रिका भगिनी
सारी भगिनी पत्रिका सारी पत्रिकायै एकं लेखनं लिखन् अस्मि. सो पत्रिका के लिए वन लेटर ही वांट्स टू राइट वन लेटर फॉर पत्रिका
ना ना वांट्स टू राइट ना भगिनी
लिख नो नो ही वांट नो अस्मि लेखन
सुनोतु भगिनी सुनोतु पत्रिकायै एकं लेखनं लिखन् अस्मि लघुवाक्यं किम्
अस्मि अस्मि इज अहम् अस्मि
अहम् अस्मि
सो विनोदः इज अहम् इज
लघुवाक्यं एकम् अन्यपदं योजयित्वा वदतु अहं
लेखनं
लेखनम् अस्मि तु समीचीनं नास्ति लिखन् इति शत्र पद प्रत्ययरूपम् अस्ति शत्ररूपं शत्रु इत्युक्ते किं शत्रु एकं प्रत्यय अस्ति
भगिनि
शत्र एकं प्रत्यय
शत्रु शत्रु भगिनि
शत्रु ऋषि एकं प्रत्यय अस्ति तत् पद प्रत्ययस्य रूपम् अस्ति लेखन् अस्मि लेखन् यदा कार्यद्वयम् अभवत् किमपि समये किमपि समये एकसमये कार्यद्वयम् सः चेत् एकं कार्यं तु शत्रुरूपं सूचितवत् सूचितवान् अहं सूचितवान् वयं सूचितवन्तः वयम् अपि च अन्यपदं तु किमपि लङ् वा लट् वा विधि वा किमपि लकार अस्ति अत्र तु अस्ति तु लट् लकार अस्ति अस्मि लिखन् तु शत्रुपदम् इत्युक्ते लिख रहा हूं
लिखन्
हिन्दीभाषायां लिख रहा हूं रहा हूं क्रियापदं क्रियापदं
प्रेजेंट कंटीन्यूअस लिख रहा हूं इज लिखन् प्रेजेंट कंटीन्यूअस भगिनी आई थिंक
उत्तमम् संस्कृतभाषायां शत्रुरूपं लिखन् अस्मि अपि च अहं लिखन् गायामि इत्युक्ते किं लिखते हुए गा रही हूँ
सो डूइंग टू थिंग्स एट द सेम टाइम
अहं लिखन् पश्यामि इत्युक्ते किं
लिखते हुए देख रही
हूं तदेव अवगतम् अहं पश्यन् खादामि तदेव अवगतं भगिनि
आं भगिनि
लिखन् अस्मि अधुना किम् अभवत् अन्य एकम् अन्यपदं रूपम् अन्यपदं स्वीकृत्य वदतु भगिनि लघुवाक्यं किम् अहम्
अहं लिखनं पठामि
किं भगिनि अहं लिखन् अस्मि पठामि तु तत्र नास्ति न अहं लिखन् अस्मि अहं लिखन् अस्मि पदत्रयम् अस्ति वाक्ये
सो वेर् इस् द अदर् वन् भगिनि वन् एक कार्यं कार्यः इस् रैटिङ्ग् लिखन्
हूँ अपि क्रियापदम् अस्ति मैं हूँ अस्मि श्रूयते वा भगिनि
आं भगिनि आं लिटिल् बिट् ऐ एम् कन्फ्यूस्ड् हियर् सो लिखन् अस्मि इस् द्वयो कार्यः
क्रियापदं
द्वयो कार्यो स्तः भगिनी इस् सेण्टेन्स् में
द्वयो कार्यो तु न तत्तु न समीचीनं नास्ति भगिनि. अस्मि एकं क्रियापदमस्ति वा न वा?
आम् आम्
अत्र लिखन् लिखन् अपि एकम् अन्यक्रिया सूचयति. क्रियाद्वयम् अस्ति. प्रथमक्रिया किं? लिखन्. द्वितीयक्रिया किम्?
अस्मि.
अस्मि मैं हूँ. क्रिया, आई मीन इट्स ट्रू यू आर नॉट डूइंग मे बी एनीथिंग, बट टू बी इज ऑल्सो अ क्रिया ना. अस्तुतः अस्ति क्रियापदम् अस्ति. लिखन् अस्मि, लिख रहा हूँ.
मैं
लिख रहा हूँ. आई एम राइटिंग. आई एम एंड राइटिंग टू क्रिया देयर नो.
सो एग्जिस्टिंग एज ही एंड राइटिंग आर द टू क्रियापदम्.
आर द टू क्रियाज. क्रियाज नॉट क्रियापदम. आर द टू क्रिया.
टू क्रिया. Yes, Bhagini.
Now, three word sentence you have. Aham likhan asmi. Now, if you are to add a fourth word and still make a sensible sentence, what would it be? Vadatu. Aha.
So, the fourth kriya padam.
Likham asmi. Vadatu, Shaileja Bhagini, vadatu. Aham likhan asmi. किं लिखन् अस्मि?
अहं लिखन् अस्मि. लेखनं लिखन् अस्मि.
लेखनं
पठितवान् अस्मि.
अहं लेखनं लिखन् अस्मि. लेखनम् इत्युक्ते किं?
लेखनम् इस् लेटर्.
लेटर् आर्टिकल् किमपि किमपि. लेखनं लिखन् अस्मि. अहं लेखनं लिखन् अस्मि. कीदृशलेखनम्?
एकं लेखनम्.
एकं लेखनम्. एकं लेखनं तत्र किम् अभवत् पदद्वयोः मध्ये?
विशेष विशेषणविशेष्यभावं स्तः.
उत्तमम् उत्तमम्. अधुना पत्रिकायै. पत्रिकायै इत्युक्ते?
पत्रिकायै इस् पत्रिका इस् स्त्रीलिङ्गशब्दः एण्ड् चतुर्थी विभक्ति. पत्रिकायै न मतिशब्दवत् स्त्रीलिङ्गशब्दः मतिशब्दवत् अस्ति.
पत्रिका
सोरि भगिनि. रमा शब्दवत् राम. रमायै. रमायै
रमावत् आकारान्त.
आकारान्त चतुर्थी
चतुर्थी इत्युक्ते किं?
पत्रिकायै इस् पत्रिका के लिए इस् राइटिंग वन ऑफ द लेटर्स फॉर पत्रिका.
लेटर्स अपि च आर्टिकल किमपि.
पत्रिकायै
एकं लेखनं लिखन् अस्मि. अधुना अवगतम्?
आं भगिनि. थैंक यू.
अग्रिमं वाक्यं पठतु.
लेखनं समाप्य आगच्छामि. सो हि इज सेइंग लाइक वन्स इट गेट्स फिनिश्ड I'll come. आगच्छामि. लेखनं समाप्य.
समाप्य कीदृशपदम्?
समाप्य अव्ययपदं वा भगिनि?
अव्यय तु अस्ति, किन्तु रूपं किं तत्र? एकं रूपम् अस्ति, रूपम् अव्ययपदम् अस्ति. शिवरूपी जानाति वा?
लेखनं
भगिनि न जानाति.
समाप्य ऊहाम् इति अहं मन्ये फ्यूचर् टेन्स्
वा? न न समाप्य
भगिनि. लेखनम् अकार्डिङ्ग् टु द लेखनं द समाप्य चेञ्जस् इस् इट् भगिनि? इफ् इट् इस् अ स्त्रीलिङ्गशब्दः एण्ड् समाप्य स्त्रीलिङ्गशब्दः.
न न अर्थः कः? समाप्य इत्युक्ते अर्थः कः? पापजी वदतु. समाप्त कर्. हेविङ्ग् फिनिश्ड्. Having finished. इत्युक्ते यथा दृष् धातुतः दृष्ट्वा, पठ् धातुतः पठित्वा, लिख् धातुतः लिखित्वा. किन्तु यदि किमपि धातु धातोः आदौ, इत्युक्ते किं? धातु के पहले. धातोः आदौ यदि उपसर्ग अस्ति चेत् अन्ते यकार आयाति तत् रूपं किं ल्यप् ल्यप् प्रत्यय ल्यप् अहम् एकवारम् अन्य समये तु वदामि सर्वम्
अस्तु भगिनि
अस्तु सम् इति उपसर्ग अस्ति आप् धातुतः यकार आयाति सम् उपसर्ग आप् धातु य समाप्य ल्यप् रूपम् अस्ति किमर्थं ल्यप् प्रथमं तु उपसर्ग अस्ति चेत् धातु धातोः आदौ उपसर्ग अस्ति चेत् अन्ते ल्यप् प्रत्यय आयाति किमर्थम् आयाति हेविङ्ग् संथिङ्ग् हेविङ्ग् रेड् हेविङ्ग् सीन् हेविङ्ग् फिनिश्ड् हेविङ्ग् वट् एवर् तदनन्तरं स्वान्तरूपम् असमीचीनम् समाप्त्वा तु असमीचीनं समाप्त्वा असाधुरूपं शुद्धं नास्ति समाप्य एव साधुरूपं लेखनं समाप्य आगच्छामि अवगतं सर्वे
एकः प्रश्नः समी इति लप्रत्ययकारणात् लेखनं द्वितीयविभक्ति अस्ति वा
उत्तमं सर्वदा त्वान्त वा ल्यप् वा कर्मपदं स्वीकरोति उत्तमं तदेव लेखनं समाप्य लेखनं समाप्य आगच्छामि अवगतं सर्वे अवगतम्
आं भगिनि
आं भगिनि धन्यवादः
चतुर्थी किमर्थं चतुर्थी इति वयं पठामः अद्य चतुर्थी अपि किमर्थम् इति पदस्य उत्तरं वदति न तत्तु साधु नास्ति लिखितं समापितवान् लिखितं लेखनं समापितवान् आगच्छामि तत्तु समीचीनं किन्तु लिखितं न तत्तु संथिङ्ग् असाधु अस्ति अस्तु चतुर्थी इत्युक्ते द्वितीयवाक्य अहं पठामि पुनः ह्यः भवान् एव लेखनीं पुत्राय दत्तवान् अपि च ह्यः भवान् एव लेखनीं पुत्रार्थं दत्तवान् समानार्थक अवगतं सर्वे
आं भगिनि
किमर्थं पुत्रार्थं दत्तवान्
पुत्र के लिए इति द्वयोः प्रयोगः अस्ति
अस्ति द्वे अपि समानार्थक वाक्यं सन्ति चेत् तत्र तदेव अहं वदामि इत्युक्ते अहम् अधुना पृच्छामि सुधा भगिनी किमर्थं संस्कृतं पठितवती किमर्थं संस्कृतं पठति किमपि
अहं किञ्चित् ज्ञानार्थं संस्कृतं पठितवती
ज्ञानार्थम् अपि च
ज्ञानाय
उत्तमं शिवरूपा भगिनी किमर्थं भवती मन्त्रगानं करोति
मनःशान्त्यार्थं भगिनि
शान्त्यार्थं वा समीचीनं शान्त्यार्थं मनः किमर्थं
माइंड मनस
न षष्टि रूपं भगिनी मन की शांति
मन की शांति के लिए
दीपशिका भगिनी किमर्थं पाकं करोति किमर्थं पाकं करोति सर्वदा पाकं करोति किमर्थं
परिवारार्थं पाकं करोति
परिवारार्थं वा
परिवार के लिए खाना
परिवार अर्थं परिवारार्थं
परिवारार्थं परिवार प्लस अर्थं
वदतु
परिवार प्लस परिवार परिवार अर्थं
परिवारार्थं
डबल र क्यों हो जाएगा
परिवार भगिनी परिवार योग अर्थं
परिवारार्थं पाकं करोति
करोमि उत्तमं शैलजा भगिनी भवती किमर्थं किमर्थं बहिः गच्छति अस्ति वा नास्ति भगिनि
आं भगिनि one minute bhagini I'm checking the meaning that I want to tell you
saralam de bhagini
aham vayu artham bahi gachami
vayu artham
fresh air
aham
there is no time to type and tell for the word fresh bhagini so I have just
वायु अर्थं तु न किन्तु
न
पदं किं सूर्यार्थम् अपि च किम् आकाशार्थम्
और प्रकृति आसपास व्हाट यू से भगिनि टू एंजॉय द नेचर
नेचर नेचर प्रकृतिम दृष्ट दृश प्रकृतिम
और
आई हैव टू सर्च दैट किम्
अहं ग्रन्थालयार्थं बहिः गच्छामि ऐ वाण्ट् टु मेक्
ग्रन्थालयार्थं बहिः गच्छामि आपणार्थं बहिः गच्छामि
आपणार्थं
आपणार्थं बहिः गच्छामि उत्तमं पापाजी भवान् किमर्थं लड्डुकम् इच्छति
लड्डुकानि मया आनन्दं
ददाति वा लड्डुकं मया आनन्दं मह्यं चतुर्थी न लड्डुकं मह्यं आनन्दं ददाति तदेव आनन्दार्थं खादामि
मात्र
आनन्दार्थं खादामि उत्तमम् उत्तमम् अन्य कोऽपि प्रश्नः अस्ति वा अस्तु अस्तु समीचीनम् अस्तु समीचीनं धन्यवादः सर्वेभ्यः अन्तिमशान्तिपाठं कोऽपि वक्तुमिच्छति वा
भगिनि एकः प्रश्नः इति अस्माकं कक्षायाम् इति नास्ति गणः इति विषये किमर्थम् इत्संख्या इति
आवश्यकम्
इत्युक्ते
तस्य प्रयोगः कः उपयोगः कः समीचीनं प्रश्नः तु अहम् एक रेकॉर्डिंग अधुना तु स्थापयामि।